శశివర్ణం చతుర్భుజం ప్రసన్నవదనం ధ్యాయేత్ సర్వ విఘ్నోపశాంతయేత్.
Mahadeva, can you please say the chant once again?
Suklambaradharam Vishnum Shishivarnam.
One second. It is Suklambaradharam, not Suklambaradharam. Don't say sir. Suklambaradharam, Dha Mahaprana.
Correct.
Because I have seen a lot of people saying Suklambaradharam Vishnum Shashivarnam. It is Shashivarnam. Dantya Nakara.
Yeah, we in Telugu we say Melika Sha, yeah, because it has sounds Sha.
I've met a lot of people from Andhra and Kannada, so I can easily say from the pronunciation where they belong to. So that's fine. Just I noticed this, so I just wanted to say. Anyhow, we usually recite Vakratunda Mahakaya.
Vakratunda also I can tell, no problem.
One of the prayers is fine. One Vinayaka Shlokam, he will definitely help us, so not to worry.
Shall I say Vakratunda Mahakaya?
Yeah, very well, you can.
Vakratunda Mahakaya Koti Surya Samaprabha నిర్విఘ్నం కురు మే దేవ సర్వకార్యేషు సర్వదా.
ధన్యవాదః. వేర్ ఆర్ వి, వాట్ హావ్ వి సీన్ ఇన్ ద లాస్ట్ క్లాస్?
పేజ్ నంబర్
25
భగిని.
Okay.
After the rupee, rupee kaani is it?
Yeah. After the table.
Huh.
Okay. After. Shankar Prasad Mahadev, Bhavani eva patatu. Nutana patam patatu.
Yes, madam. Nishedarthakaha alam siddhaha yatra prayujyate tatra tritiya vibhaktihi bhavati. పర్యాప్తార్థకస్య అలం శబ్దస్య యోగే తు చతుర్థీ విభవతి. ఉదాహరణ
కించిత్ ప్రతిపాదయతు కిమ్ అస్తి అత్ర ఇతి ప్రతిపాదయతు.
అలం ఇదే నిషేధార్థక శబ్దః. యదా అలం శబ్దః ప్రయుజ్యతే తత్ర తృతీయ విభక్తిః భవతి.
నిషేధార్థకః పర్యాప్తం ఇది సూచయతి. అలం
పర్యాప్తం,
ఇట్ మీన్స్ పఠతు ఉదాహరణం. పఠతు ప్రథమం
ఉదాహరణ. బాలాః తూష్ణీం తిష్ఠ. బాలాః తూష్ణీం తిష్ఠంతు అలం కోలాహలేన. దట్ ఇస్ బాయ్స్ సిట్ సైలెంట్లీ without any kolahalam, without any noise.
No, it is not without any noise. Enough of noise.
Enough of noise.
Enough of fun, in that sense.
Oh.
So, that is what they have written. Pariyaptarthakasya, which means in the sense of saying enough.
Sufficient, like that.
Samyak. Dhanyavadah.
Thank you.
बीना भगिनी अग्रे पठतु.
अस्तु भगिनी, अभ्यासः आवरणान्तर्गतेन शब्देन अलं शब्दं योजयित्वा वाक्यानि रचयत. यथा आवरणे जल्पनम् ऐ भगिन्यः अलं जल्पनेन So that is hey ladies, enough, stop gossiping, stop gossiping. धन्यवादः.
प्रथमम् उदाहरणमपि प्रथमम् अभ्यासमपि करोतु भगिनि. अतिविस्तरः इति अस्ति खलु
प्रथमबिन्दु आवरणे. अतिविस्तरः अयि भगिन्यः अलम् अतिविस्तरेण. हे लेडीस् स्टाप् अतिविस्तरेण, दट् इस् टु मच् आफ् एक्स्प्लनेशन्.
Yeah, it's too much of detail.
Detail, okay.
Astu, sami, dhanyavadah.
Dhanyavadah.
Uma, bhagini, agrimam karo tu kripaya.
Aam, bhagini. Shokah.
Avarane asti shokah.
Avarane shokah asti. Vakyam, ai bhaginyah अलं शोकेन.
अस्तु, अयि भगिन्यः इति समीचीनं. किञ्चित् भिन्नं वाक्यं योजयितुं शक्यते वा?
तृतीया विभक्ति शोकेन.
न न, समीचीनं. वाक्यं किञ्चित् भिन्नं कर्तुं शक्यते वा? अयि भगिन्यः इति पूर्वतन विषये आसीत्, आल्रेडि इट् इस् देयर्. केन् यु थिङ्क् आफ् समथिङ्ग् एल्स्? मेबि टु युर् फ्रेण्ड् यु आर् सेयिङ्ग् भो मित्र अलं शोकेन.
हे सीता अलं शोकेन.
उत्तमं, धन्यवादः.
धन्यवादः.
विद्याधर महोदय अग्रिमं करोतु कृपया. विद्याधर महोदय अस्ति वा?
आं भगिनि, आं भगिनि.
करोतु, करोतु.
अयि बालकः अलं साहसेन.
अस्तु, साहसम् इत्युक्ते उमा भगिनी किं म्यूट् मध्ये कृपया तिष्ठतु.
इनफ् आफ् एड्वेञ्चर्.
अस्तु, एड्वेञ्चर् इस् फैन्. या, बेटर् दट् केन् आल्सो बि. अस्तु, धन्यवादः. रामेश्वरी भगिनी अग्रिमं करोतु.
हे दुर्योधन, अलम् अविवेकतया.
अस्तु, पुनः एकवारं यद्भवती उक्तवती वदतु एकवारम्.
आवरणे अविवेकता अस्ति. हे दुर्योधन,
एकनिमिषम् अत्र तिष्ठतु. हे दुर्योधन मास्तु, हे दुर्योधन.
ओके, हा हा. हे दुर्योधन अलम् अविवेकतया.
सम्यक्, अधुना सम्यक्. धन्यवादः,
धन्यवादः.
शङ्करप्रसाद् महोदय पुनः प्रारम्भं करोतु.
धावनम् इति शब्दः. हे बालकः अलं धावनेन.
एकनिमिषं, कुत्र पठति भवान्? अस्तु अस्तु अस्तु, करोतु करोतु. हे बालकः
धावनं. हे बालकः अलं धावनेन.
सम्यक्, धावनेन. नूतनमपि पठतु. आवरणे दत्तानां शब्दानाम् अस्ति खलु, तदपि.
यस् मेडम्. आवरणे दत्तानां शब्दानाम् उचितैः रूपैः रिक्तानि स्थलानि पूरयत.
सम्यक्.
वाचकः रिक्तस्थलानि वितिन् ब्राकेट्स् छुरिका शाकं कर्तयति. वाचकः छुरिकया शाकं कर्तयति.
छुरिकया
भगिनी, सोरि,
वदतु
भगिनी. एकं शङ्का अस्ति. दिस् अयि भगिन्या देन् हे बालकः, दे आर् आल् सम्बोधन. स्वागतम्
छुरिकया शाकं कर्तयति. शाकम् इत्युक्ते वेजिटेबल्स् इति अर्थः.
वेजिटेबल्स्.
धन्यवादः. वीणा भगिनी.
आं भगिनि.
एकनिमिषं भगिनी. चन्द्रा भगिनी आगतवती इति मन्ये. भगिनी, वी आर् इन् पेज् नम्बर् 25. चन्द्रा भगिनी.
आं भगिनि.
वि आर् डूयिङ्ग् 9. ओके. अवीना भगिनी पठतु.
द्वितीय बिन्दु. अर्जुनः रिक्तस्थलं आवरणे बाणाः कौरवान् मारितवान्. अर्जुनः बाणैः कौरवान् मारितवान्. बहुवचनं. धन्यवादः.
बाणैः. उमा भगिनी अग्रिमं करोतु.
आं भगिनि. महिला आवरणे सम्मार्जनी मार्जितवती. महिला सम्मार्जन्या मार्जितवती.
सम्मार्जन्या. सम्यक्. धन्यवादः. विद्याधर महोदय अग्रिमं करोतु.
आं भगिनि. चित्रकारः अङ्कन्यः कूर्चाः च चित्रं लिखति.
अङ्कन्यः इति बहु
अङ्कनी बहु
अङ्कन्यौ अङ्कन्यः.
चित्रकारः अङ्कनीभिः
सम्यक्.
वन् मिनिट्. अङ्कनीभिः कूर्चाभिः
कूर्चाभिः इति न.
दिस् इस्
बाणः.
कूर्चः इस् पुल्लिङ्ग, रैट्? कूर्चैः चित्रं लिखति.
पुनः एकवारं स्पष्टतया सम्पूर्णं वाक्यं.
चित्रकारः अङ्कनीभिः कूर्चैः च चित्रं लिखति.
सम्यक्. धन्यवादः. रामेश्वरी भगिनी अग्रिमं करोतु.
भवती रिक्तस्थलमस्ति. आवरणे का सः आगतवती. भवती कया सह आगतवती.
सम्यक्. कया सह आगतवती. धन्यवादः. चन्द्रा भगिनी अग्रिमं करोतु.
आं भगिनि. ह्यः भवान् आवरणे जननी सह कुत्र गतवान्? ह्यः भवान् जनन्या सह कुत्र गतवान्?
सम्यक्. धन्यवादः. शङ्करप्रसाद् महोदय अग्रिमम्.
दुष्टः रिक्तस्थानम् आवरणे सर्वे सः कलहं करोति. दुष्टः सर्वे सः कलहं करोति.
पुनः वदतु एकवारं.
सर्वे इस् प्लूरल्.
सर्वे प्लूरल् वा?
प्लूरल्. तृतीया फर् सर्वे. सर्वेभिः.
सर्वैः इति समीचीनम्.
सर्वैः. सर्वैः.
इफ् इट् इस् सर्वा स्त्रीलिङ्ग. इफ् इट् इस् सर्वः सर्वैः. If it is sarva, as in strilingam, so sarva, sarve, sarvaha, sarvam, sarve, sarvaha, sarvaya, sarvabhyam, sarvabhi. So tritiya for sarva, which is strilinga, will be sarvaya. but here it is pullingam, pullingam only, so it will be sarvaihi.
Just like banaihi, sarvaihi.
Yes, yes, you're correct.
Thank you. Dushtah sarvaihi saha kalaham karoti.
Samyak.
Thank you.
Vina bhagini abhinam karoti.
Aam bhagini. This is bhavantah api riktasthalam avarane vayam saha samskritam patantu. Bhavantah api vayam. So vayam will be asmabhyam.
No.
Vayam asman asmabhi. Asmabhi. Okay.
Asmabhi
bhagini?
Am samyak. Asmabhi. Aham avabhyam bahuvachana rupam. Maya avabhyam asmabhi. Shuddham.
So the sentence will be bhavantah api asmabhihi vayam saha samskritam patantu.
Asmabhihi saha eva, asmabhihi vayam iti nasti.
Sorry, bhagini?
You said asmabhihi vayam. There is no vayam if you say asmabhihi.
Yeah, yeah. Asmabhihi saha samskritam patantu.
Samyak, dhanyavadaha.
Dhanyavadaha.
Uma bhagini agrimam patato kudaya.
आम भगिनी रिक्तस्थलम् आवरणे धनं विना जीवनं कठिनं धनेन विना जीवनं कठिनं
धनेन विना जीवनं कठिनं धनम् इति दकारस्य महाप्रणः धनम् इति
धनम् धनेन
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 न न यू आर सेइंग द आई एम सेइंग ध दैट इज महाप्रणम राइट
धनेन
यू हियर द रिकॉर्डिंग एंड प्रैक्टिस इट यू कैन नॉट से इट द इट थ द ध
द ध
धनेन
धनेन
सम्यक् अस्तु
धन्यवादः
धन्यवादः विद्याधर महोदय अग्रिमं करोतु
अस्तु भगिनि दन्ताः आवरणम् आवरणे विना चर्मणं न शक्यम्
अस्तु
दन्तैः विना चर्मणं न शक्यम्
सम्यक् रामेश्वरी भगिनी अग्रिमं करोतु
रिक्तस्थलमस्ति आवरणे भक्तिः विना पूजया कः लाभः भक्त्या विना पूजया कः लाभः
सम्यक् भक्त्या विना पूजः कः लाभः धन्यवादः चन्द्रभगिनी अग्रिमं करोतु
आं भगिनि भिक्षुकः रिक्तस्थलमस्ति आवरणे आशा
हा हा एकनिमिषं भगिनि वदतु महोदय
भक्तिः इति स्त्रीलिङ्गशब्दं धन्यवादः
भिक्षुकः रिक्तस्थलमस्ति आवरणे आशा द्वारसमीपं गतवान् भिक्षुकः आशया द्वारसमीपं गतवान्
अस्तु शङ्करप्रसाद् महोदय अग्रिमम्
रिक्तस्थलमस्ति रिक्तस्थलम् आवरणे विशेषता वक्तव्यं किमपि नास्ति
अस्तु
विशेषतया वक्तव्यं किमपि अस्ति.
सम्यक्. वीणा भगिनी अग्रिमं.
भगिनी भगिनी
किमपि प्रश्नः वा?
भक्त्या विना पूजया कः लाभः? पूजया इस् द्वितीया विभक्ति.
एकनिमिषं वीणा भगिनी, केन् यु प्लीस् म्यूट्? ऐ कुडेण्ट् हियर् हर् प्रापर्लि. नौ केन् यु से वाट् इस्
द एकादश. भक्त्या विना पूजया कः लाभः? पूजया तृतीया विभक्ति. केन् वी यूस्
देर् इस् विना प्रयोगं, रैट्?
सो विना इस् फार् भक्त्या, नो?
हा, ट्रू देट्, बट् देन् पूजया इस् आल्सो एन् इन्स्ट्रुमेण्ट्.
सो ओके, आल्टर्नेटिव्लि केन् वी यूस् षष्ठी? मीन्स् हम लोग ऐसे बोलते ना, पूजा, पूजा का क्या मतलब है फिर ऐसे? तो
ओके, सो हाउ विल यू फ्रेम द सेंटेंस?
भक्त्या विना पूजा याह कह लाभः? तो
सी, व्हेनेवर यू वांट टू यूज षष्ठी, देयर शुड बी सम डायरेक्ट रिलेशनशिप. ओनली इन दैट सेंस यू कैन यूज इट.
So, labh is out of puja, no?
It is not a relationship. It is something you obtain out of it.
Okay. So,
though it is related, it is not like a father-mother or daughter-mother or anything of that sort. Or out of these, this is Shrestha, not like that. So, I don't think that will fit here.
Okay, so we have to use Tritiya only.
Yeah, Tritiya makes sense because that is instrumental to attain bhakti.
Okay.
That is a goal. So how do you attain goal? It is with bhakti. So only in that sense you can consider this.
Okay. It's a little tricky.
There are some possibilities, but there are some exceptions that you should use only this. When there is a word like bhakti or something of that sort, I probably we can try to check on it.
Okay.
Okay.
Dhanyavad bhagini.
Swagat.
क्षम्यतां भगिनि, अत्र एतद्विषये एकविंशतिपुटे विना इति भवति खलु, तत्र यत्किमपि वाक्यं दत्तम् अस्ति तेषामपि द्वितीयपदमपि तृतीया विभक्ति एव अस्ति खलु?
Maybe, but the question that she asked is that she asked
is okay.
Veena Bhagini?
Bhagini?
Bhagini. Chaturdashi Bindu.
Chandra Bhagini, please mute.
Bhagini. Kamyata.
Correct.
Is this correct, Bhagini? Chaturdashi Bindu.
चतुर्दश बिन्दु
रिक्तस्थलम् आवरणे कलहः न्यायनिर्णयः न भवति. सो कलहेन न्यायनिर्णयः न भवति.
अस्तु, उमा भगिनी अग्रिमम्.
आं भगिनि, सः रिक्तस्थलम् आवरणे ताडनं शुनकस्य कोपं वर्धयति. सः ताडनेन शुनकस्य कोपं वर्धयति.
विद्याधर्मदे अग्रिमं करोतु.
Bhagini, before I go to the next one, that kalahena, there it should it be nyaya nirnayam na bhavati or nyaya nirnayah na bhavati?
Nyaya nirnayah only. Because the question will be kaha na bhavati, not kim.
Okay. अश्रुविमोचनं कष्टस्य निवारणं न भवति. अश्रुविमोचनेन कष्टस्य निवारणं न भवति.
धन्यवादः रामेश्वरी भगिनी. अग्रिमम्
औषधस्य रिक्तस्थलमस्ति, आवरणे उच्चारणमात्रं रोगः न अपगच्छति. औषधस्य उच्चारमात्रेण रोगः न अपगच्छति.
धन्यवादः चन्द्रभगिनी. अग्रिमं करोतु
भगिनी.
Yes,
I asked the meaning of that 17th month.
That says, just because you say medicine, ucharana matram is just the time you say aushadam, which is medicine, the disease will not go. You have to wait, take it, and then only it will go.
Okay.
There are some sutras in Charaka Sutra, but I don't want to get it.
Ashru vimochanam.
Meaning?
Ashru vimochanam. Yeah.
Tears.
Just because
crying.
The kashtam will not.
Kashtasya nivaranam.
Ashru is tear. Vimochanam is you're giving vimochanam to Ashru by letting it go from your eyes. So whose turn is this now? Who should be doing?
Aham bhagin. Aham.
Karo.
Vegadutayanam. अन्य अस्ति सामिसुखयानं वा वयं धर्मस्थलं गच्छामः. वेगदूतयानेन सामिसुखयानेन वा वयं धर्मस्थलं गच्छामः.
ओके.
Luxury.
Okay. It's like semi-luxury kind of. Not completely, but semi. I believe so. I'll check and tell you how. I don't know if it is available in any of the dictionaries. Shankar Prasad Mahodaya, agrimam karotu.
Uttarkalam. आवरणे दश दिनानि.
दश. इट् इस् श.
दश. दश दिनानि सः अस्वस्थः अस्ति. फर् दिनानि दिनैः.
फैन्. बट् फर् दश.
दश विल् चेञ्ज्.
या इट् विल्.
हौ? दश. दश.
दशभिः
दिनैः सः अस्वस्थः अस्ति.
सम्यक्.
थैंक्.
दिनानि इज़ वन् थिङ्ग्. dinam dine dinani. So dasha is also to be considered as of the same linga.
Okay. So should it be dashaihi or dashabhi?
It cannot be dashaihi. It doesn't go well with the sentence. Grammatically, I will try to see and tell you because it has been in the usage. So with usage, I have come across to saying this as dashabhi.
Okay. I just wanted to know the explanation.
Yeah, I understood. I'll just try to explain it because I have to sit and, you know, see that. But I've heard the usage of dashabhi, so I'm confident about that.
Okay. Dhanyavaad.
Bhagini, there are all full table of vibhakti for sankhya.
Yeah. Sankhya table is there, correct.
Yeah, so in that, maybe.
There I have come across, and also in sentences I have come across this. So we'll see.
Bhagini, dinani also comes under dinam dine dinani. Is it like that?
Yeah. Dinam dine dinani.
So tritiya there will be like pulinga rupam, right? Dinaihi?
No. It is not. Because they are just saying it. Okay. You're asking if the... You're correct. Dinaihi only will come. Dashabhihi dinaihi.
Okay. Dashabhihi
dinaihi,
is it?
Yeah. That is correct. Yes.
Okay. Shall I do the next one, Bhagini?
Yeah. Please go ahead.
Vimshatihi bindu mitra alam avarane ala riktasthalam avarane chinta buddhishthatu. So mitra alam chintena buddhishthatu.
Chintena ti na.
No?
Chintaya.
Okay.
Chintaya.
Mitra alam chintaya uthishtatu.
Enough of thinking. Alam chintaya uthishtatu.
Alam chintaya.
Okay. Uma bhagini agrimam patatu. Kopi prashna hasti vatra. So there were two questions, right? One is the vibhakti for sankhya. The other one we were talking was about bhakti hi pujaya. So these two I have to clarify. Anything else apart from this you can ask, otherwise you can ask.
Bhagini.
What is it?
Adaha koshtake sa vibhage eka vachana rupam dattam asti. Cha vibhage trayaha vikalpaha suchitaha santi. च विभागे स्थितं शुद्धं बहुवचनरूपं रेखया अङ्कयत् उदाहरणं जनेन जनेभ्यः जनैः जनाभिः
केवलं समीचीनं पदं वदतु तावत् पर्याप्तम्
एकवचनं जनेन बहुवचनरूपं जनैः
अस्तु सम्यक् धन्यवादः भवती एव अपि करोतु चोरेण इति अस्ति खलु
चोरेण चोरेभ्यः
समीचीनं वा जनेन जनैः चोरेण
चोरैः तृतीया विभक्ति
तृतीया विभक्ति एकवचनमस्ति चोरेण तृतीया विभक्ति बहुवचनमस्ति चोरैः
चोरैः
धन्यवादः
दन्तैः
अस्तु भगिनि पर्याप्तं धन्यवादः विद्याधर महोदय द्वयमपि करोतु, इ इ द्वयमपि करोतु भवान् अपि.
Actually, I forgot the tritiya of each of these actually. Bhavata.
Bhavata.
Bhavata is.
Kim shabdam?
Bhavati shabdam or? I forgot.
Bhavata iti bhavantam shabdam. क्षम्यतां, पुल्लिङ्गं भवान्, भवान् भवन्तौ भवन्तः, भवन्तं भवन्तौ भवतः, भवता भवद्भ्यां,
भवद्भिः.
सम्यक्, भवद्भिः. अवगतं वा?
अवगतं. भवताभिः अभवत्.
सम्पूर्णं शब्दं प्रयत्नं करोतु. भवती शब्दं खलु इत्युक्ते भवती भवत्यौ भवत्यः, भवतीं भवत्यौ भवतीः, भवत्या भवतीभ्याम्.
ओके, भवती भवत्यौ भवत्यः, भवतीं भवत्यौ भवतीः, भवत्या भवतीभ्यां.
सम्यक्, उत्तमं, धन्यवादः. रामेश्वरी भगिनी अग्रिमं. भगिन्या इति अस्ति.
इट्स् ईकारान्त स्त्रीलिङ्गशब्द भगिनी. एकवचनं प्रथम. तृतीया भगिन्या. बहुवचनं भगिन्यः. इट्स् तृतीया भगिनीभिः.
भगिनीभिः. सम्यक्. अग्रिमं मया.
अहं शब्द. अहं शब्दस्य तृतीया मया. अहं शब्दस्य बहुवचनं वयं. वयं शब्दस्य तृतीया अस्माभिः.
वयं शब्दस्य न, अहं शब्द. The shabda is same only, it is not vayam.
Aham, vayam.
Asmat
shabda.
Asmat shabdasya tritiya eka vachanam asti maya.
Maya, and bahu vachan.
Asmat shabdasya tritiya bahu vachanam asti.
Asma bhihi.
Samyak. Uttam. चन्द्रा भगिनी अग्रिमं द्वयं करोतु.
आं भगिनि, अग्रिमम् अस्ति तेन. तस्य बहुवचनरूपम् अस्ति तैः.
सम्यक्.
अग्रिमम् अस्ति सर्वेण. तस्य बहुवचनरूपम् अस्ति सर्वैः.
अस्तु, सर्वेण सर्वैः. सम्यक्, धन्यवादः. शङ्करप्रसाद् महोदय अग्रिमम्.
कया इस् फर् का, सिङ्गुलर् इस् का. सर्विस् काभिः.
सम्यक्, काभिः. केन् यु ट्रै टु से द एण्टायर्?
कया, काभ्यां, काभिः.
प्रथमाविभक्ति किं?
कः, का.
का, के, काः, कां, के, काः, कया,
का, के, काः,
कां, के, काः, कया, काभ्यां, काभिः.
कया, काभ्यां, काभिः.
अग्रिमम्.
औ, लेखन्या.
लेखनीभिः. सम्यक्, धन्यवादः महोदय.
धन्यवादः.
वीणा भगिनी अग्रिमम्.
अस्तु भगिनी, ऐ थिङ्क् द प्रश्न इस् आन् द नेक्स्ट् पेज् रैट् प्रश्न.
हा एकनिमिषं. न अत्र एव इट् इस् सः चर्चा कृतवान् देर् सो यु शुड् ऐ थिङ्क् मेक् द सः टु तृतीया विभक्ति.
ओके
एकनिमिषम् एकनिमिषं. सः चर्चां कृतवान्. आम् यु हेव् टु चेञ्ज् दट् टु तृतीया ऐ मीन् तृतीया.
भगिनी अग्रिमपुटे तस्य अस्ति खलु रामः केन कैः सह किं कृतवान् इति उपरितनकोष्टकां स्थूलतया निर्दिशति.
अस्तु
यस् यस् भगिनि
एवम् अस्तु. ओके ऐ डिन्ट् डू द होम्वर्क् बिकास् ऐ डिन्ट् नो वेर् वि स्टाप्ड् लास्ट् क्लास् द रेकार्डिङ्ग् आल्सो इन् समवेर् सो ऐ डिन्ट् लिसन्. यू गो अहेड् भगिनि डू इट् प्लीज़.
ओके रामः केन कैः सः कैः सः किं कृतवान् इति उपरितनकोष्टकं स्थूलतया निर्दिशति. तदाधारेण सर्वनामशब्दानां तृतीया विभक्तिं योजयन्तः उदाहरणानुसारं वाक्यानि रचयत.
अस्तु
सः चर्चां कृतवान्.
तत्पूर्वं कोष्टकस्थानि रूपाणि स्मरत इति स्मर केवलं स्मरणार्थम् एकं कोष्टकमस्ति तदपि एकवारं पठतु. अकारान्तः अस्ति बालेन बालैः पुस्तकेन पुस्तैः अस्ति खलु.
So 27th page what happens Bhagini?
No, no. Prathamam tat patatu tadanantaram.
Okay, astu astu. Koshtaka sthani rupani smarata. Puling pulinga strilinga napumsakalinga
akaranta.
Then akarantah ba ekavachanam balena bahuvachanam balaihi.
Samyak.
नपुंसकलिङ्ग एकवचन एकवचनं पुस्तकेन बहुवचनं पुस्तकैः आकारान्तः स्त्रीलिङ्गः बालिकया बालिकाभिः ईकारान्तः स्त्रीलिङ्गं लेखन्या लेखनीभिः
पठतु.
उदाहरणं रामः तेन सह चर्चां कृतवान् तेन सह चर्चां कृतवान्
अत्र सः इति सः चर्चां कृतवान् सो तेन सह अनन्तरं ते वादं कृतवान् इति अस्ति. ते इत्यस्य बहुवचनं किम्?
तैः.
सम्यक् तैः सह वादं कृतवान् उत्तमं धन्यवादः. उमा भगिनी अग्रिमं करोतु.
आं भगिनि एषः कथां पठितवान्
अनन्तरं
एते पाठान् पठितवान्.
अस्तु रामः
रामः एतेन सह एतेन सह कथां पठितवान्
एतेन सह कथां पठितवान् अनन्तरं
रामः एतैः सह पाठान् पठितवान्
सम्यक् धन्यवादः विद्याधर महोदय अग्रिमम्
आं भगिनि सा गीतं गीतवान् ताः कार्यं कृतवान् रामः सा I forgot the sa shabd rup tritiya vibhakti
try to recollect so sa strilingam hello
ha strilingam
sa te sa te sa ha tam te sa ha taya tabhyam tabhi
okay
so it should be taya
taya रामः तया सह गीतं गीतवान् ताभिः सह
सम्यक्
कार्यं कृतवान्
सम्यक् धन्यवादः
धन्यवादः
रामेश्वरी भगिनी अग्रिमम् उमा भगिनी प्लीज़् बी म्यूट्
आपणं गतवान् एषा आपणं गतवान् एताः विपणिं गतवान् एताः विपणिं गतवान्
यु आर् एलोङ्गेटिङ्ग् द नी यु आर् सेयिङ्ग् विपणिम् इट् इस् विपणिम् ओन्लि विपणिम्
ओके विपणिं
सम्यक् गतवान्
रामः रामः एतया सह आपणं गतवान्
सम्यक्
रामः एताभिः सह विपणिं गतवान्
सम्यक् चन्द्रभगिनी अग्रिमम्
आं भगिनि भवान् गृहम् आगतवान् वा अग्रिममस्ति भवन्तः क्रीडितुम् आगतवान् वा रामः भवता सह गृहम् आगतवान् वा भवद्भिः सह क्रीडितुम् आगतवान् वा
सम्यक् शङ्कर् महोदय अग्रिमम्
भवती कुत्र गतवान् आसीत् भवत्यः किमर्थं कलहं कृतवान् रामः भवत्या सह कुत्र गतवान् आसीत् भवतीभिः सह किमर्थं कलहं कृतवान्
सम्यक् धन्यवादः वीणा भगिनी अग्रिमम्
आं भगिनि अहं धावितवान् वयं न उपविष्टवान् रामः मया सह धावितवान् रामः अस्माभिः सह न उपविष्टवान्
सम्यक्
धन्यवादः
धन्यवादः कोऽपि प्रश्नः अस्ति वा? अस्तु, उमा भगिनी
भगिनी एतत् अहं तदा न आगतवती पञ्चविंशतिपुटे अष्टमबिन्दु निषेधार्थकः अलं शब्दः यत्र प्रायुज्यते तत्र तृतीया विभक्ति भवति तत् अवगतवती अनन्तरम् अस्ति पर्याप्तार्थकस्य अलं शब्दस्य योगे तु चतुर्थी भवति तत् वयं न कृतवन्तः खलु तस्य अर्थं किं पर्याप्त अलं शब्दस्य योगे तु चतुर्थी भवति
अस्तु अत्र परन्तु अवर् एम् इस् टु फार् निषेधा वि आर् यूसिङ्ग् तृतीया
आम्
बट् इन् द सेन्स् आफ् इनफ् इट् विल् बि चतुर्थी
तत् उपयोगं
एतत् पर्यन्तं चतुर्थी
ओम्
वि आर् डूइङ्ग् ओन्ली तृतीय
आम्
ओके मे बि इन् चतुर्थी दे वुड् हव् गिवन् आई डोंट्
नो ओके
उमा भगिनी अधुना पठतु
पठामि अधो निर्दिष्टं कोष्टकं पठत द्वितीयान्तानि रूपाणि
अस्तु
इकारान्तः पुल्लिङ्ग हरिणा हरिभिः एकवचनं हरिणा बहुवचनं हरिभिः
अस्तु स्त्रीलिङ्गम् अस्ति
स्त्रीलिङ्गे मत्या मतिभिः
अस्तु
नपुंसकलिङ्गे दध्ना दधिभिः
सम्यक्
उकारान्तः एकवचनं पुल्लिङ्गं गुरुणा बहुवचनं गुरुभिः
सम्यक्
स्त्रीलिङ्गे एकवचनं धन्वा बहुवचनं धेनुभिः नपुंसकलिङ्गे एकवचने मधुना बहुवचनं मधुभिः ऋकारान्तः ऋकारान्तः पित्रा पितृभिः स्त्रीलिङ्गं मात्रा मातृभिः
अस्तु
ऋकारान्तः कर्त्रा पुल्लिङ्गं बहुवचनं कर्तृभिः
अत्र स्त्रीलिङ्गे धन्वा इति अस्ति इट् शुड् बि धेन्वा धेनुः धेनु धेनवः धेनुं धेनु धेनुः धेन्वा धेनुभ्यां धेनुभिः प्लीस् मेक् दट् करेक्षन् मे बि अ टैपोग्राफिकल् एरर्
धेन्वा धेन्वा धेनुभिः
अस्तु
भगिनी ऐ हेव् अ डौट् इट् सेस् द्वितीय अन्तानि रूपाणि
द्वितीयान्तानि रूपाणि
द्वितीय अन्तानि वाट् डस् इट् मीन् भगिनी
I think they are trying to say it as dvivachana
roop. Haan, dvivachana, okay.
Na bhagini, etadeva ikaranta eva hari shabda, mati shabda, tavat va?
I don't get it.
Eka eva antaha, parantu... द्विविभागे पुल्लिङ्गे अपि
तादृशं
न भगिनि वयं तु इकार अद्यपर्यन्तम् अकारान्तः सर्वे पुल्लिङ्गे स्थापयामः इकारान्तः स्त्रीलिङ्गे पुल्लिङ्गे ईकारान्तः स्त्रीलिङ्गे आगच्छति परन्तु अत्र द्वितीयं द्वयमपि त्रीणि अपि इकारान्तः अस्ति पुल्लिङ्गे हरिशब्द स्त्रीलिङ्गे मतिशब्द नपुंसकलिङ्गे दधिशब्द तद्विषयम् अत्र
द्वितीयान्तानि रैट् I don't think so.
So maybe they are just talking about two endings. They are not talking about the middle one. The Dvivachanam, they are not talking about
maybe,
it.
Maybe. So far they are doing
okay, that. Okay, okay.
Yeah. Always they are doing that.
Yeah, yeah. So, I don't know. I don't know in which sense they are given here. Astu. Kasya Kramaha? Who should be reading now? Uma Bhagini Eva Padita Vatikolo. Bhavati Eva 12.
Agre Patami Va?
Patatu, patatu.
अदो निर्दिष्टानां तृतीय विभक्ति रूपाणि लिखत उदाहरणं कविः पुल्लिङ्गः एकवचनं कविना बहुवचनं कविभिः
अस्तु प्रथमम् अपि च द्वितीयं वयमपि करोतु हिन्दुः इति अस्ति
पुल्लिङ्गः एकवचनं हिन्दुना बहुवचनं हिन्दुभिः
हिन्दुना हिन्दुभिः सम्यक् अग्रिमं सेतुः
सेतुः उकारान्तपुल्लिङ्गः एकवचनं सेतुना सेतुभिः
सम्यक् विद्याधर महोदय अग्रिमं वयं
सन्धिः उकारान्तपुल्लिङ्गः सन्धिना सोरि इकारान्तपुल्लिङ्गः सन्धिना सन्धिभिः
सम्यक् पुष्पाधानि स्त्रीलिङ्गः
इकारान्तस्त्रीलिङ्गः पुष्पाधान्या
सम्यक्
पुष्पाधानीभिः
सम्यक् पुष्पाधानीभिः धन्यवादः महोदय रामेश्वरी भगिनी अग्रिमं द्वयं करोतु
आसक्तिः इकारान्त श्रीलिङ्गशब्दः आसक्त्या आसक्तिभिः भुषुण्डिः इकारान्तश्रीलिङ्गशब्दः भुषुण्ड्या भुषुण्डिभिः
सम्यक् अग्रिमं
वाट् इस् भुषुण्डि कदु
भुषुण्डि
पठामः अग्रिमम् अस्ति शङ्कुः पुल्लिङ्गशब्दः तस्य तृतीया एकवचनम् अस्ति शङ्कुना बहुवचनरूपम् अस्ति शङ्कुभिः अग्रिमं याता स्त्रीलिङ्गशब्दः मातावत् भवति वा भगिनि अत्र याता इत्युक्ते आम् परन्तु तस्य रूपं कथं भवति लतावत् वा
सीता मन्ये मन्ये लता इत्युक्ते
यात्रा
यातृभिः अग्रिममपि करोमि वा
I hope it is correct. Yatra. Matavati. Matra. Yatra. Matra, Matrabhya, Matrabhi. Yatra, Yatrabhya, Matrabhi. Bhagini. Rikaranta eva.
Yes, Bhagini. Rikaranta, Sriling, Matrisham. So, Mata becomes Matra. Isn't it?
Matra. Samichinam. Bahuvachanam will be Ma Yatrabhi.
Yatrabhi. Yes.
Samyak. Dhanyavada.
Dhanyavada.
Shankar Prasad Mahodaya, Sugrivam. Dvayam. Karyakarta api cha pita.
Karyakarta punlingastah. Karyakartra.
Samyak.
कार्यकर्तृभिः
सम्यक्
पिता पुल्लिङ्गशब्दं पित्रा पितृभिः
सम्यक् धन्यवादः
धन्यवादः
यू कैन एक्सटेंड फॉर 10 मोर मिनट्स वी विल फिनिश ऑफ तृतीया विभक्ति टुडे इफ नॉट वी विल मीट इन नेक्स्ट क्लास
वी कैन कंप्लीट एक्चुअली
अस्तु आई थिंक एवरीबॉडी इज फाइन विद दैट इफ एनी ऑफ यू हैव गॉट एनी प्रॉब्लम्स जस्ट गिव मी अ हेड्स अप सो दैट आई कैन स्टॉप हियर If not, Veena, Bhagini, continue.
Aam, Bhagini. Avarne dattanam shabdanam tritiyantena rupena ekavachanam riktasthalam purayata.
Okay. Udaharan.
Bhagini.
Udaharan.
Sorry, Bhagini.
I think it's a typo on page number 28, Dhrityantani. Here they say Dhrityante in Rupena.
Oh, yeah.
Maybe, right?
Yeah. Could be. Yeah, Dhrityante in there. Dhrityantani. Padatu Bhagini, Veena Bhagini.
Pashtu Bhagini. Udaharanam, Vigneshah, Matra, Avarane, मात्रा सह काशीं गमिष्यति
सम्यक् प्रथमम् अपि च द्वितीयं हरीशः
रिक्तस्थलम् आवरणे श्रोता सह चर्चां कृतवान् दिस् विल् बि हरीशः श्रोत्रा सह चर्चां कृतवान्
अग्रिमं
नागेशः धेनुः सह अरण्यं गतवान् दट् वे धेनुः धेनुना धेनुना
धेन्वा
धेन्वा
अत्र दृश्यन्ते खलु धन्वा इति अशुद्धं पदम् धेन्वा इति तृतीया
धेन्वा सह अरण्यं गतवान्
सम्यक् उमा भगिनी अग्रिमं द्वयं करोतु धन्यवादः
आं भगिनि सुरेशः आवर्णे मुनिः सुरेशः मुनिना सह अग्निहोत्रम् आचरति
सम्यक्
कल्मेशः आवरणे दुहिता कल्पेशः दुहितया सह क्रीडति
दुहित्रा इति मन्ये
दुहित्रा माता माता दुहित्रा कल्मेशः दुहित्रा सह क्रीडति
अत्र दुहिता इत्युक्ते डाटर् इति
डाटर् श्रोत्रा श्रोता
कोऽपि जानाति वा श्रोत्रा
आडियन्स्
आडियन्स् लिसनर्
श्रोता
धन्यवादः अग्रिमं पठामि वा
भवती द्वयं कृतं खलु मुनिः अपि च दुहिता
द्वयं कृतवती
पर्याप्तम् Anyhow, you will do the next one also, no? So there you will get the chance. Vidyadhar Mohdaya, karotu agrimam, dvayam karotu.
Sunishaha, Sambuhu, saha, chalana chitram, drishtavan. Sunishaha, Sambhuna, saha, chalana chitram, drishtavan.
Samyak.
Satishaha, Sumatihi, saha, matulagraham, gamishyati. सतीशः सुमतिं सुमत्या सह मातुलगृहं गमिष्यति
रामेश्वरी भगिनी अग्रिमं द्वयं करोतु
परमेशः भ्राता परमेशः भ्रात्रा सह कलहं कृतवान् पिता एव महेशः अतिथिः मुनिः एव महेशः अतिथिना सह वायुविहारं करोति
सम्यक् चन्द्रा भगिनी
भगिनी अत्र अतिथिः पुल्लिङ्गशब्दः वा अथवा
मतिवत्
एव स्त्रीलिङ्गः
मुनिः एव न
मुनिः एव मुनिः एव
पुल्लिङ्गशब्दः
ओके ओके अग्रिमम् अस्ति वेङ्कटेशः आवरणे भीरुः सः स्नेहं न इच्छति वेङ्कटेशः भीरुना सह स्नेहं न इच्छति गिरीशः नियुद्धपटुः सह अभ्यासं करिष्यति गिरीशः नियुद्धपटुना सह अभ्यासं करिष्यति
शङ्करप्रसाद् महोदय अग्रिमं
आवरणे दत्तानां शब्दानां तृतीया बहुवचनान्तेन रूपेण रिक्तस्थलानि रिक्तस्थानानि पूरयत उदाहरणं विनायकः आवरणे कृतिः कृतिः अस्ति कृतिभिः प्रसिद्धः वेदिका रिक्तस्थानम् आवरणे वक्ता शोभते वेदिका वक्तृभिः शोभते सर्वे बालाः रिक्तस्थानम् आवरणे पिता सः आगच्छेयुः सर्वे बालाः पितृभिः सह आगच्छेयुः
सम्यक् पितृभिः धन्यवादः वीणा भगिनी अग्रिमं वयं
आं भगिनि तानि नगराणि तानि नगराणि रिक्तस्थलं सेतुः विराजन्ते सेतुः सेतुः सेतु मीन्स् उच्यते भगिनि
ब्रिड्ज्
तानि नगराणि सेतुभिः विराजन्ते नेक्स्ट् वन् उदरं भरिः सह अधिकस्नेहः मास्तु उदरं भरिः वारि वारिस् रूपम्
उदरं बहिः इत्युक्ते उदरं बरिभिः
उदरं बरिभिः
विच् मीन्स् हू इस् समथिङ्ग् समवन् हू इस् सेल्फिश्
ओके उदरं बरिभिः सह अधिकस्नेहः मास्तु
अस्तु धन्यवादः उमा भगिनी अग्रिमद्वयं करोतु
आं भगिनि सः पेटिकां आवरणे रज्जुः बद्धवान् सः पेटिकां रज्जुभिः बद्धवान्
सम्यक्
भ्रमराः आवरणे मधु मोदन्ते भ्रमराः
मधुभिः
मधुभिः मोदन्ते
मधुना एकवचनं मधुभिः
मधुभिः
सम्यक्
भगिनी on page number 28 they say dadhna it is a mistake or it's a different form
where is it
madhuna madhubhi tasya upari
dadhna astu atra kim prashnah
means madhuna so it's dadhna or dadhna
no probably the anta will be different I don't know we will have to check that
it's a dadhi no
bagini dadhi dadhi shabda napumsakalinga dadhi dadini dadini
okay okay
but is
tasya tritiya bhavati samyak asti chintayam
samyak eva asti kalu bagini dadhi dadhi dadini dadini dadhi dadini dadini dadna dadibhyam dadibhi
okay dadna okay
अत्र दधि इति इकारान्तपदम् अत्र मधु इति उकारान्तपदम् अत्र भिन्नम् अस्ति
भिन्नः
सो इट्स् लैक् वारि वारि
वारि वारिणि वारिणि
इट्स् ह्रस्व ओन्लि नो दधि
दधि दधिनि दधीनि बट् ईकारान्तपदं नपुंसकलिङ्गे इकारान्त नपुंसकलिङ्गम् परन्तु मधु इति उकारान्त नपुंसकलिङ्गपदम् एण्ड् इस् डिफरेण्ट् अण्ड् हेन्स् द थिङ्ग् डिफर्स्
ओके
इट् सौण्ड्स् सिमिलर् बट् द एण्ड् इस् डिफरेण्ट् दट् इस् द थिङ्ग् वै यु आर् गेटिङ्ग् कन्फ्यूस्
आं भगिनी बट् इफ् वि से वारि इस् इट् इस् ह्रस्व ह्रस्व इकारान्त
वारिणा So it's Varina, Tritiya is Varina.
Okay.
Means Sanyukta Akshara, Dadhna or Dadhina, I don't know.
It's Dadhna only. You cannot conclude with just one entire Shabda. The other one will also be like that. Because okay. there are a lot of exceptions and rules that are getting involved to make that specific Dadhna.
Oh, okay, okay.
Okay.
Yeah. Dhanyavada Bhagini.
Swagatam. विद्याधर महोदय खलु पठतु
आं भगिनि वाग्मि सूक्तिः जनान् बोधयति वाग्मि सूक्तिभिः जनान् बोधयति भवन्तः माता सह क्रीडतु भवन्तः मातृभिः सह क्रीडतु मातृभिः सह क्रीडतु
रामेश्वरी भगिनी अग्रिमं द्वयं करोतु
वैद्यः दधि वैद्यः दधिभिः
सम्यक्
औषधं निर्माति शिबिरस्थानं कुटिः शिबिरस्थानं
कुटीभिः पूर्णमस्ति.
सम्यक्, उत्तमम्. सो वित् दिस् वी आर् कम्प्लीटिङ्ग् तृतीया विभक्ति. अ क्विक् रीकेप्, ऐ जस्ट् टेक् वन् आर् टु मोर् मिनिट्स् प्लीस् एक्स्क्यूस् मी. फस्ट् वन् वास् करणे तृतीया विभक्ति भवति, लैक् लेखन्या, अङ्कन्या, अहम् अङ्कन्या लिखामि. सो दट् इस् करणशक्ति, करणे. भावे प्रयोगे, कर्मणि प्रयोगे च कर्तृ तृतीया विभक्ति भवति. पुष्पेण विकसन्ति और् विकस्यते. लेखनेन ग्रन्थाः लिख्यन्ते. सो कर्मणि प्रयोगे भावे च वि आर् यूसिङ्ग् तृतीया. अण्ड् अपार्ट् फ्रम् दट् सह प्रयोगे, सदृशप्रयोगे तृतीया. मित्रेण सह अहं क्रीडामि. मुखं चन्द्रेण सदृशम् अस्ति. अण्ड् करणवाचकस्य तृतीया. वित् वाट् यु आर् गेटिङ्ग् ज्ञानं. पूजया भक्तिं प्राप्नोति, वट् एवर् एक्साम्पल् दट् वि सा. सो दट् टालीस् वित् द रूल् करणवाचकस्य. आल् रैट्, करणवाचकस्य तृतीया विभक्ति. अण्ड् देन् अलं योगे अपि तृतीया. अलं सम्भाषणम् आर् वि सा द मीनिङ्ग् इन् द सेन्स् आफ् निषेध. देर् आल्सो वी केन् यूस् तृतीया. सो ऐ एम् वेरी सारी दट् ऐ हेव् एक्स्टेण्डेड् इट् फोर् आल्मोस्ट् 20 प्लस् मिनिट्स्. थेङ्क् यू सो मच् फर् द पेशन्स्. केन् समवन् रिसैट् द शान्तिमन्त्रम्? चन्द्रभगिनी, अदर्स् प्लीस् बी इन् म्यूट्. शङ्कर् मार्ग, प्लीस् बी इन् म्यूट्.
सर्वेषां स्वस्तिर्भवतु, सर्वेषां मङ्गलं भवतु, सर्वेषां पूर्णं भवतु, सर्वेषां शान्तिर्भवतु. ॐ शान्ति शान्ति शान्तिः.
धन्यवादः.